इयं आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधितिवारी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी अद्यारभ्य पोलैण्ड युक्रेन देशयोः त्रिदिवसीय यात्रायां भविष्यति। अवधेयं वर्तते यत् एषा एका ऐतिहासिकी यात्रा विद्यते, यतोहि भारतस्य प्रधानमन्त्री पञ्चचत्वारिंशत् वर्षाणाम् अनन्तरं पोलैण्डदेशं प्रति गच्छति। श्रीमोदी पोलैण्डदेशस्य प्रधानमन्त्रिणा डोनाल्ड टस्क इत्यनेन, राष्ट्रपतिना च एण्ड्रेस डूडा इत्यनेन साकं मेलनम् अपि करिष्यति। श्रीमोदी अत्रावसरे भारतीय समुदायैः व्यावसायिक नेतृभिः प्रमुखैः भारत विद्भिः सह च सह पारस्परिक संवादं करिष्यति। विगतेष् पञ्चचत्वारिंशत् वर्षेष् कस्यचित् भारतीय प्रधानमन्त्रिणः पोलैण्ड देशाय इयं प्रथमा यात्रा भविष्यति। प्रधानमन्त्री श्रीमोदी युक्रेन देशस्य राष्ट्रपतिनः वलोडिमीर जेलेंस्की इत्यस्य निमन्त्रणे शुक्रवासरे युक्रेनस्यापि आधिकारिक यात्रारतो भविष्यति। भारत मलेशियाभ्याम् श्रमाजीविका क्षेत्रे आयुर्वेद पारम्परिक चिकित्सा विधिक्षेत्रयोः प्राविधिक तन्त्रज्ञान संस्कृति पर्यटन युवा क्रीडा सहयोग क्षेत्रेषु च अनेकानि सन्धिपत्राणि हस्ताक्षरितानि। द्वावेव देशौ लोकप्रशासनस्य शासन संशोधनस्य परस्पर सहयोगस्य क्षेत्रे चापि सन्धिपत्रेषु हस्ताक्षराणि कृतवन्तौ। नवदिल्ल्यां प्रधानमन्त्रिणा नरेन्द्रमोदिना मलेशिया देशस्य समकक्षीयेन अनवर इब्राहिम इत्यनेन सह प्रतिनिधिस्तरीय वार्तायाः अनन्तरं एतेषु सन्धिपत्रेषु हस्ताक्षराणि कृतानि। संयुक्त वार्ताहर सम्मेलनं सम्बोधयता प्रधानमन्त्रिणा नरेन्द्रमोदिना प्रोक्तं यत् भारत मलेशिया देशौ समग्र सामरिक सहभागित्वं वर्धयितुं निर्णयं कृतवन्तौ। श्रीमोदी अवदत् यत् द्वयोः देशयोः मध्ये रणनीतिक सहभागित्वं दश वर्षाणि पूरयिष्यति। विगत द्वयोः वर्षयोः अस्यां सहभागितायां नूतनः वेगः समागतः। असौ अवदत् यत् प्रतिनिधिस्तरीयायां वार्तायां उभौ पक्षौ परस्पर सहयोगस्य सर्वेष् क्षेत्रेष् विस्तृत चर्चां कृतवन्तौ। असौ अवदत् यत् भारतस्य यूपीआई इत्येतत् मलेशिया देशस्य पैनेट इत्यनेन सह योजयितुं उभौ पक्षौ अपि कार्यं करिष्यतः। अस्मिन् अवसरे मलेशिया देशस्य प्रधानमन्त्री अवोचत् यत् बहूनि क्षेत्राणि सन्ति यत्र पक्षाभ्यां समधिकम् अन्वेषणं कर्तव्यम् अस्ति। भारत जापान देशयोः मध्ये ह्यः नवदिल्ल्यां 2+2 इति मन्त्रिस्तरीया वार्ता समनुष्ठिता। रक्षामन्त्री राजनाथसिंहः विदेशमन्त्री च डॉ एस जयशंकरः जापानदेशीयौ रक्षामन्त्री किहारा मिनारु विदेशमन्त्री च योको कामिकावा इत्येषा एतस्मिन् उपवेशने भागं स्वीकृतवन्तः। उपवेशनावधौ रक्षामन्त्री जापानदेशस्य च रक्षामन्त्री द्विपक्षीयवार्ताम् अकुरुताम्। एतस्मिन् उपवेशने द्विपक्षीय सहयोगस्य समीक्षाम् अथ च उभयोः देशयोः मध्ये सम्बन्धान् इतोऽपि प्रबलीकर्तुं नवीनेषु पक्षेषु वार्ताः अपि विहिताः। संघलोकसेवायोगः पार्श्वप्रवेशं प्रति पुनर्निर्दिष्टं विज्ञापनं निरस्तीकृतवान्। सूचना प्रसारण मंत्री अश्विनी वैष्णवः अकथयत् यत् आरक्षणस्य सिद्धान्तैः सह पार्श्वप्रवेशस्य संरेखनस्य निर्णयः प्रधानमन्त्रिणः नरेन्द्रमोदिनः सामाजिक न्यायं प्रति प्रतिबद्धतां दर्शयति इति। इतः पूर्वं सर्वकारेण यूपीएससी इत्यायोगः प्राशासनिक सेवायां पार्श्वप्रवेश सम्बन्धं विज्ञापनं निरसितुम् आदिष्टः आसीत्। जम्मू कश्मीर विधानसभा निर्वाचनस्य प्रथम चरणस्य अधिसूचना प्रख्यापिता। एतस्मिन् चरणे अनन्तनाग शोपियां कुलगाम रामबन किश्तवाड़ डोडा जनपदानां चतुर्विंशति आसनेभ्य मतदानं भविष्यति। इति वार्ताः।